इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य महाकुम्भमेलापकस्य अद्य प्रयागराजे महाशिवरात्रिमहोत्सवस्यावसरे समापनं भविष्यति। अद्य प्रातः प्रयागराजस्य संगमक्षेत्रे अन्येषु घाटेषु च श्रद्धालवः पवित्रावगाहनं कुर्वन्तः सन्ति। जनवरी मासस्य त्रयोदश दिनांके समारब्धेऽस्मिन् महाकुम्भमेलापके षड् सप्ताहेषु साम्प्रतं यावत् चतुष्षष्टिकोटितोप्यधिकाः श्रद्धालवः भागं भजितवन्तः, येन इदं मेलापकं विश्वस्य मानवतानां बृहत्तमः समागमः अस्ति। महाशिवरात्रि शिवपार्वत्योः दिव्यसंयोगं प्रतिबिम्बयति। कुम्भमेलापकस्य सन्दर्भे च अस्य महत्वं विशिष्टं वर्तते। महाकुम्भनगरे विभिन्नघाटेषु च जनसमूहानां निरीक्षणं सुरक्षाकर्मचारिणः सतर्कतया कुर्वन्तः सन्ति। रेलस्थानकेषु, मार्गेषु, नगरस्य प्रवेशस्थानेषु च नित्यं भक्तानां प्रवाह दृश्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् वैश्विक अनिश्चिततायाः वातावरणे अपि विश्वस्य सर्वे विशेषज्ञाः भारतस्य द्रुतवृद्धौ निश्चिताः सन्ति। गतापराह्ने गुवाहाट्याम् एडवांटेज असम 2.0 निवेशावसंरचना शिखरसम्मेलनस्य उद्घाटनसत्रं सम्बोधयता प्रधानमन्त्रिणा प्रतिपादितं यत् भारतस्य विकासे विश्वासः अस्य विशालः युवानः सन्ति, ये अतीव द्रुतगत्या कुशलाः भवन्ति, नवाचाराणां च नेतृत्वं कुर्वन्तः सन्ति। अनन्तरं विकसितभारताय असमस्य अर्धचालकक्षितिचेत्यस्य उन्नतिः इत्यस्मिन् विषये सत्रं सम्बोधयन् केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अवदत् यत् असमराज्यं भारतस्य विकासे अग्रणी भविष्यति। प्रशासनम् अस्य क्षेत्रस्य विकासाय कार्यं कुर्वदस्ति। केन्द्रीयगृहमन्त्री अमितशाहः गतरात्रौ तमिलनाडुराज्यस्य कोयम्बटूरनगरे सम्प्राप्तवान्। तस्य स्वागताय केन्द्रीयराज्यमन्त्री डॉ एल मुरुगनः तथा च राज्यस्य भाजपेति दलस्य अन्ये नेतारः उपस्थिताः आसन्। श्रीशाहः अद्य कोयम्बटूरनगरे भाजपेति दलस्य नव कार्यालयस्य उद्घाटनं करिष्यति। रात्रौ च कोयम्बटूरनगरस्य समीपे ईसा फाउण्डेशन इति केन्द्रस्य शिवरात्रि उत्सवे भागम् अपि भजिष्यति। कर्मचारी भविष्यनिधि संघटनेन गतवर्षस्य दिसम्बरमासस्य कालखण्डे 16 लक्षाधिकाः सदस्याः नियोजिताः। चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य नवम्बरमासस्य तुलनायाम् एतत् 9.69% वृद्धिं प्रदर्शयति। श्रमजीविकामन्त्रालयस्यानुसारम् 18 पञ्चविंशति आयुवर्गपर्यन्तं 85,000+ यावत् नवीनाः सदस्याः नियोजिताः। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः उक्तवान् यत् युक्रेनदेशस्य दुर्लभ खनिजक्षेत्रेषु रूसस्य स्वामित्वभागे अमेरिकादेशाय प्रवेशं प्रदातुं सज्जः अस्ति। राष्ट्रपतेः डोनाल्ड ट्रम्पस्य नेतृत्वे अमेरिकादेशः युक्रेनदेशं प्रदत्तसमर्थनस्य विनिमयरूपेण तस्य खनिजसम्पदां प्राप्तुं सन्धिः कुर्वन्नस्ति। पुरुषाणाम् आईसीसी चैम्पियंस ट्रॉफीति क्रिकेट क्रीडायाम् अद्य अपराह्ने पाकिस्तानस्य लाहौरनगरस्य गद्दाफी क्रिकेट क्रीडांगणे इंग्लैण्डदलं अफगानिस्तानदलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः मध्याह्ने 2:30 भविष्यति। इति वार्ता।